सवितुर् वृणीमहे। वयं देवस्य भोजनम् तत्सवितुर् वृणीमहे। वयं देवस्य भोजनम् सदा भद्रम् वृणीमहे। वयं देवस्य भोजनम् तत्सवितुर्वृणीमहे। वयं देवस्य भोजनम् श्रेष्ठं सर्वसाधनम् गुरुं भगस्य धीमहि।